एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य केन्द्रीय समितेः प्रवर्तमानेन उपवेशेन दलम् सर्वकारश्च सुशासनम् संस्थाप्य समाजवादम् अवलम्बितुम् परामृष्टौ स्तः। राष्ट्रिय सभागृहे प्रवर्तमाने उपवेशे अध्यक्षद्वयस्य केपी शर्मा ओलिनः पुष्पकमल दाहाल प्रचण्डस्य च राजनीतिक प्रतिवेदनम्, महासचिवस्य विष्णुप्रसाद पौडेलस्य सांगठनिक प्रतिवेदनम्, विधान संशोधन प्रस्तावम् च आधृत्य पञ्चदशभिः समूहैः स्वस्व प्रतिवेदनम् प्रस्तुत्य राष्ट्रे भ्रष्टाचार नियन्त्रणाय दलनेतृत्वम् सर्वकारश्च परामृष्टौ स्तः। एभिः समूहैः समाजस्य चरित्रम् व्याख्याय विश्लिष्य च नेपाली निदर्शनस्य समाजवादम् निर्मातुम् मुख्य परामर्शः प्रदत्तो वर्तते। अध्यक्षद्वयस्य ओलिनः प्रचण्डस्य च राजनीतिक प्रतिवेदनम्, महासचिवस्य पौडेलस्य सांगठनिक प्रतिवेदनम्, विधान संशोधन प्रस्तावम् च आधृत्य पञ्चदशभिः समूहैः स्वस्व समूहस्य प्रतिवेदन प्रस्तुतेः कार्यक्रम ह्यः सम्पन्नमस्ति। अद्य दिवा एकवादने उपविश्यमाने उपवेशे समूहगत विमर्शने उत्थितानां प्रश्नानां उत्तरण कार्यक्रमोऽस्तीति नेकपादलं ज्ञापयति। प्रधान न्यायाधीशः चोलेन्द्र शमशेर जबरा गदति न्यायक्षेत्रस्य प्रतिष्ठां वर्धयितुं न्यायाधीशैः निष्पक्षरूपेण न्यायनिरूपणं विधातव्यम्। धनुषा जनपदस्य जनकपुरधाम्नि उच्चन्यायालयानां न्यायाधीशानां कृते ह्य आयोजितायां गोष्ठ्यां प्रधान न्यायाधीशः जबरा जनतायाः आस्था विश्वासयोः केन्द्रं न्यायालयोस्तीति कारणेन न्यायालयस्य कार्याणि पारदर्शिणि उत्तरदायिनी मितव्ययिनी च विधातव्यानि इत्यत्र बलं प्रादात्। प्रधान न्यायाधीशः जबरा अगदत् द्वितीय प्रदेशस्य न्यायालयेषु सम्प्रत्यपि न्यायिक प्रकरणानि अत्यधिकानि सन्तीति हेतोः पीडितेभ्यः शीघ्रं न्यायं प्रदातव्यम्। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा वदति लोकतान्त्रिक मूल्य मान्यतायां केनापि कुतोपि आघातः न प्रापणीयः। पञ्चम प्रदेशस्य प्रदेश सभायां प्रमुख विपक्षी दलस्य नेतुः बलदेव शर्मा पोखरेलस्य निधनस्य त्रयोदश्यां पुण्यतिथौ रूपन्देही जनपदस्य टिकुलीगढ़स्थाने गतदिने आयोजितायां श्रद्धांजलि सभायां सभापतिः देउवा अगदत् संचार स्वतन्त्रतायाः पक्षे विहितम् आन्दोलनं प्रति कांग्रेस दलस्य समर्थनं भवति। सर्वकारेण कोरोना जीवाणु संक्रमणस्य अधिक प्रभाविते चीनदेशस्य हुवेई प्रान्ते स्थिताः नेपालिनः उद्धरिष्यन्ते। वेन्जिङ स्थितेन नेपाली राजदूतावासेन गतदिने विज्ञप्तिम् प्रकाश्य नेपाले प्रत्यावर्तितु कामाः नेपाली नागरिकाः आवेदनं प्रपूरयितुम् अनुरुद्धाः वर्तन्ते। हुवेई प्रान्तस्य वुहान स्थानात् कोरोना जीवाणु संक्रमणं प्रारब्धम् इत्यतः हुवेई प्रान्ते स्थिताः सर्वे नेपाली नागरिकाः विच्याट प्रविधेर माध्यमेन सूचिताः सन्तीति दूतावासेन ज्ञापितं वर्तते। अत्रान्तरे चीनदेशस्य वुहान स्थाने स्थिताः नेपालिनः सुरक्षिताः सन्तीति चीनदेशीय विदेश मन्त्रालयेन ज्ञापितं वर्तते। चीनदेशीय विदेश मन्त्रालयेन ह्य प्रकाशितायां विज्ञप्तौ वैदेशिक नागरिकाणां सुरक्षायै चीनदेशेन आवश्यकं स्वास्थ्य संयन्त्रं संस्थापितमस्तीति ज्ञापयता वुहान स्थानां नेपाली विद्यार्थीनां स्वास्थ्य सुरक्षां ध्यात्वा प्रतिरक्षात्मकाः सर्वे उपायाः अवलम्बिताः सन्तीति उक्तं वर्तते। अत्रान्तरे स्वास्थ्य जनसंख्या मन्त्री भानुभक्त ढकालः भासते कोरोना जीवाणु संक्रमितेभ्यो रुग्णेभ्यः चिकित्सालयात् बहिः पृथक उपचार केन्द्राणि स्थापयिष्यन्ते। गतदिने चितवन जनपदे मन्त्री ढकालः अवोचत् कोरोना जीवाणु संक्रमणस्य आशंकितानां रुग्णानां कृते भोजनावासन सहिताय उपचाराय उपचार केन्द्राणि स्थापयिष्यन्ते। संस्कृति पर्यटन नागरिकोड्डयन मन्त्री योगेश कुमार भट्टराई भासते कोरोना जीवाणूनां प्रकोपात् संरक्षणाय उच्च सावधानताम् अवलम्बितुं सर्वकारेण सर्वाणि संयन्त्राणि प्रभावकारितया परिचालितानि सन्ति। कोरोना जीवाणूनां सम्भावित प्रकोपस्य संकट नियन्त्रणाय कीदृशाः उपायाः अवलम्बनीयाः इत्यस्मिन् विषये ह्यः सम्बद्ध निकायैः सह विहितस्य विमर्शनस्य क्रमे असौ अवोचत् नेपालस्य पर्यटन क्षेत्रं सुरक्षितम् अस्ति, कोरोना जीवाणूनां संकट न्यूनीकरणाय सर्वकारः संवेदनशीलश्च वर्तते। संचार सूचना प्रविधि मन्त्री गोकुल प्रसाद बास्कोटा वदति सर्वकारेण विहितानां कार्याणां प्रचारस्य अभावात् दले आलोचना सम्भूता वर्तते। राष्ट्रिय सभागृहे प्रवर्तमानस्य नेपाल कम्युनिष्ट पार्टी नेकपा दलस्य केन्द्रीय समितेः द्वितीय पूर्णोपवेशस्य पश्चात् ह्यः संचारकर्मिभिः सह मन्त्री बास्कोटा अभासत। उपवेशे स्वाभाविक रूपेण सर्वकारस्य शोभन विषयैः सह दुर्वलताया विषयाश्च विश्लिष्यन्ते इत्यतः आलोचना सम्भूता वर्तते। नेकपा दलस्य केन्द्रीय सदस्यश्च मन्त्री बास्कोटा अकथयत् सर्वकारस्य कार्याणि दलपंक्त्या नहि सामान्येन विश्लिष्य परम गभीर रूपेण अध्येतव्यानि। ऊर्जो जल स्रोत सिंचन मन्त्री वर्षमान पुंज स्वदलम सर्वकारश्च जनयुद्धस्य तत्पूर्वं तत्पश्चाच्च भूतानाम आन्दोलनानां च हुतात्मनां स्वप्नं साकारयितुं प्रतिबद्धौस्तः इति ब्रवीति। हुतात्म विलुप्त योद्धृ सन्तति प्रतिष्ठानस्य प्रथमां साधारण सभां गतदिने सम्बोधयन् मन्त्री पुन हुतात्मनां स्वप्नस्य साकारीकरणाय तात्कालिकयोः एमाले माओवादी केन्द्र दलयोः मध्ये एकता सम्भूतास्तीति समस्पष्टयत्। असौ जनयुद्धस्यैव कारणात् नेपाले गणतन्त्रेण सहितं राजनीतिक परिवर्तनं समभवत् इति चर्चयन् माओवादिनो दशवर्षीयं जनयुद्धं यथार्थम् अस्तीति अतर्कयत्। भूमि व्यवस्था सहकारी विपन्नता निवारण मन्त्री पद्मा कुमारी हरियालः कथयति समाजे विद्यमानं मनोविज्ञानं यथार्थ मार्गे नेतुं संगीतं भूमिकां निर्वहति। कलाकारस्य विजेन्द्र नौवागे विधस्य महु सुन्दर नेपाल इत्याख्यं देशभक्ति गीत संग्रहं ह्य काष्ठमण्डपे लोकार्पयन्ति मन्त्री हरियालः अगदत् गण्डकी प्रदेशः लोकसंस्कृतेः उर्वर भूमि वर्तते। नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः भासते साहित्येन समाजस्य मूल्य मान्यताः रक्षितुं सहयोगो मिलति। सर्वज्ञ वाग्ले इत्यनेन लिखितस्य पुनर्वास इति शीर्षकीयम् उपन्यासं लोकार्पयन् ह्यो वरिष्ठ नेता पौडेलः अभासत समाजः प्रतिकूल दिशि अग्रेसरो वर्तत इति हेतोः साहित्येन अनुकूल परिवर्तनम् आत्मसात् कर्तव्यम्। स्वास्थ्य सामाजिक क्षेत्रे च प्रापितं योगदानम् आलक्ष्य मानवाधिकारकर्मी डाक्टर गौरीशंकर लाल दासः सम्मानितो वर्तते। परशुराम शकुन्तला दाहाल स्मृति सेवा प्रतिष्ठानेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे श्रममृत्युपार्जन सामाजिक सुरक्षा मन्त्री रामेश्वर राय यादवः दासं सममानयत् इति समाचारः।